इयम् आकाशवाणी। सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचकः दिव्यानन्द झा। प्रधानमन्त्री नरेन्द्रमोदी ह्यः मध्यप्रदेशस्य जबलपुरनगरे षट्शताधिकद्वादशसहस्रकोटिरूप्यकाणां विकासपरियोजनानाम् उद्घाटनं शिलान्यासं च कृतवान्। इतः पूर्वं प्रधानमन्त्रिणा उक्तं यत् केन्द्रप्रशासनं राजस्थाने रेलमार्गसम्बद्धायाः आधारभूतसंरचनायाः विकासाय कार्यं करोति। राजस्थानस्य जोधपुरे तेन उक्तं यत् केन्द्रं प्रत्येकस्मिन् क्षेत्रे तीव्रगत्या विकासाय कार्यं समाचरति। प्रधानमन्त्री अवदत् यत् रेलविकासाय राजस्थानाय 95 अर्बुदरूप्यकाणि आवंटितानि। एतत् विगत प्रशासनस्य वार्षिक सामान्यायव्ययपत्रकात् भूयोऽपि 14 गुणात्मकम् अधिकम् अस्ति। प्रधानमन्त्री अवदत् यत् स्वतन्त्रतायाः अनन्तरं 14,000+ यावत् राजस्थाने प्रायशः 600 किलोमीटरमितात्मिकायाः रेलपट्टिकायाः विद्युतीकरणं जातम्। अपरतः विगतेषु 9 वर्षेषु 37,00,000 किलोमीटरमितात्मिकायाः रेलपट्टिकायाः विद्युतीकरणं जातम्। मध्यप्रदेशशासनेन वनं विहाय सर्वेषु सर्वकारीयवृत्त्यवसरेषु महिलाभ्यः 35%-मितस्य आरक्षणस्य घोषणा कृता। अवधेयम् अस्ति यत् राज्ये महिलाभ्यः 35%-मितम् आरक्षणं दातुं मध्यप्रदेश लोकसेवा नियमावल्यां यस्यां महिलानां नियुक्त्यर्थं विशेष प्रावधानम् आसीत् तस्यां संशोधनं मध्यप्रदेश शासनेन कृतम्। मुख्यमन्त्रिणा शिवराजसिंहचौहानेन साम्प्रतिके समये आरक्षिपदेषु अन्येषु च सर्वकारीयपदेषु 35%-रिक्तस्थानेषु महिलानाम् आरक्षणस्य घोषणा कृतासीत्। मध्यप्रदेशः प्रथमं राज्यम् आसीत् यस्मिन् पञ्चायत नागरीय निर्वाचनेषु महिलाभ्यः 50%-मितम् आरक्षणं क्रियान्वितं जातम्। सिक्किमराज्यस्य मुख्यमन्त्री पीएस तमांगः राज्ये वर्तमानायाः आपत्स्थितेः समीक्षायै राज्यस्य मुख्यसचिवेन वीबी पाठकेन अन्यैः च सह एकस्य उपवेशनस्य अध्यक्षतां कृतवान्। मुख्यसचिवेन मुख्यमन्त्रिणे साहाय्योद्धार कार्य पुनर्वास विषयेषु भारतीय सेनया सम्बद्ध विभागैश्च सह समन्वयने राज्य प्रशासनेन विहितानां पदक्षेपाणां विषये सूचना दत्ता। केन्द्रीय युव विषयक क्रीडा मन्त्री अनुराग सिंह ठाकुरः ह्यः छत्तीसगढस्य रायपुरे नेहरू युवा केन्द्र संघटनेन आयोजितस्य द्विदिवसीय राज्यस्तरीय युव महोत्सवस्य उद्घाटनं कृतवान्। कार्यक्रमं सम्बोधयन् मन्त्री अकथयत् यत् भारतस्य नम्रशक्तिः इतोऽपि सुदृढा भवेत्। एतदर्थं क्रीडा संस्कृति चलचित्र जगतां माध्यमेन कार्यं भवितुम् अर्हति। श्रीमता ठाकुरेण प्रशंसितं यत् चीन देशे प्रवर्तमानासु एशिया क्रीडा स्पर्धासु भारतीय क्रीडकानां श्रेष्ठ प्रदर्शनेन देशः गौरवम् अनुभवति। असौ युवभिः समाह्वानं कृतं यत् ते पर्यावरण शिक्षा स्वास्थ्य स्वच्छता मद्यमुक्ति क्षेत्रेभ्यः एकं क्षेत्रं चिन्वन्तु। चीनस्य हांगचौ इत्यत्र अनुवर्तमानासु एशिया क्रीडा स्पर्धासु भारतेन अधुनावधि 80 पदकानि जितानि। भारतेन अधुनावधि 21 स्वर्णपदकानि 32 राजतानि 33 कांस्यानि पदकानि जितानि। भारतं पदकतालिकायां सम्प्रति 4th स्थानं भजते। अन्ते क्रिकेट वार्तासु आईसीसी विश्व चषक क्रिकेट स्पर्धा मालिकायाः प्रथमं द्वन्द्वं न्यूजीलैण्डेन जितम्। गतसायं अहमदाबादे नरेन्द्र मोदी क्रीडांगणे समायोजिते द्वन्द्वे न्यूजीलैण्डेन इंग्लैण्डदलं 9 क्रीडकैः पराजितम्। पूर्वं इंग्लैण्डेन न्यूजीलैण्डस्य पुरतः 83-200 धावनांकात्मकं विजयलक्ष्यं स्थापितम् आसीत्। अद्य हैदराबादे पाकिस्तान नीदरलैण्ड्स दलयोः स्पर्धा भविष्यति। इति वार्ताः।